मराध्य गौरीशं देवं मृत्युञ्जयेश्वरं मृतसञ्जीवनं नाम्ना कवचं प्रजपे सदा सारा चारतरं पुण्यं गुह्या गुह्यतरं शुभं महादेवस्य कवचं मृतसञ्जीवनामकं समाहितमना भूत्वा शृणुष्व कवचं शुभम् निषेवितः मृत्युञ्जयो महादेव प्राच्यामां पातु सर्वदा दधानशक्तिमभयम् त्रिमुखं षट्भुज प्रभुः सदाशिवो भुजोपेतो दण्डाभयकरो विभुः यमरूपी महादेवो दक्षिणस्यां सदावतु खड्गाभयकरो धीरो रक्षो गणनिषेवितः रक्षो रूपी महेशो मां नैरृत्यां सर्वदा शाभय भुज सर्व रत्नाकर निषेवितः वरुणात्मा महादेव पश्चिमे मां सदा वदु गदा भयकर प्राण नायक सर्वदा गतिः वायव्यां मारुतात्मा सर्वदा शङ्खाभयकरस्थो मां नायक परमेश्वरः सर्वात्मान्तरदिग्भागे पातु मां शङ्कर प्रभुः भयकर सर्व विद्यानामधिनायकः ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ऊर्ध्वभागे ब्रह्मरूपी विश्वात्मा सदावतु शिरो मे शङ्कर पातु ललाटं चन्द्रशेखरः मध्यं सर्वलोकेशस्त्रिनेत्रो लोचने वतु भ्रूयुग्मं गिरिश पातु कर्णौ पातु महेश्वरः नासिकां मे महादेव ओष्टौ पातु वृषध्वजः जिह्वा मे दक्षिणामूर्तिर्दन्तान् मे गिरिशो वतु मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः पिनाकी मत्करौ पातु त्रिशूली हृदयम् जगदीश्वरः नाभिं पातु विरूपा पार्श्वौ मे पार्वती पतिः कटद्वयम् गिरीशो मे पृष्टम् मे प्रमथाधिपः गुह्यम् महेश्वरः पातु ममो रूपातु भैरवः जानुनि मे जगद्धर्ता जङ्गे मे जगदम् पातु मे भार्याम् भवः पातु सुतान् मम मृत्युञ्जयो ममायुष्यम् चित्तम् मे गणनायकः सर्वाङ्गम् मे सदा पातु कालकालः सदा शिवः एतत्ते कवचम् पुण्यम् देवतानाम् समुदाहृतम्